संस्कृत रीडिंग वन बुद्ध कथा बिगिनिंग ऑन पेज 391। एकदा भारत देशे कपिलवस्तु नगरे शुद्धोदनो नाम नृपो भवत्। तस्मिन् नगरे सर्वे जनाः सुखेनावसन्। जनानां सुखेन नृपोऽपि सुखमलभत। स नृपः सर्वाणि शास्त्राण्यबोधत्, सर्वदा च सत्यमेवाभाषत। तस्य भार्या मायादेवी, तस्याः सर्वे गुणा अवर्तन्त। यदा यदा जनाः शुद्धोदनं मायादेवीं चैक्षन्त, तदा तदा ते मन्यन्त, य एतयोः पुत्रो भवेत्, सोऽप्यस्माकं नृपो भवेत्। ईश्वरोऽस्माकं नृपाय पुत्रं यच्छत्विति। शुद्धोदनस्य भार्या सर्वदेश्वरमार्थयत्, मम पुत्रो जायतां, तस्य मतिःशक्तिर्गुणाश्च वर्तन्ताम्। स्वैर्गुणैः शक्त्या मत्या च स सर्वान् लोकान् जयतु। सर्वे जना मम पुत्रं सर्वदा नमन्तु, पूजयन्तु च। मम पुत्रः सर्वेभ्यो जनेभ्यः सुखं यच्छतु, स सर्वेषां जनानां दुःखं हरत्विति। यदा मायादेवी सुखार्थं वने भ्राम्यत्, तदा वन एव तस्याः पुत्रो जायत, स सिद्धार्थः। यदा बालं सिद्धार्थं मुनयो पश्यंस्तदा ते भाषन्त, हे शुद्धोदन, एष तव पुत्रो यदि नृपो भवेत्, तर्हि स सर्वस्य लोकस्य नृपो भवेत्। किन्तु यदि स लोके दुःखं पश्येत्, तर्हि स मुनिरेव भवेत्, तदा स सर्वस्य लोकस्य गुरुर्भवेदिति। यदा शुद्धोदनो नृपो मुनीनां तद्वचनमबोधत्, तदा सो चिन्तयत्, मम पुत्रो नृप एव भवतु, स सर्वस्य लोकस्य नृपो भवतु, स मा वनं गच्छतु, मा च स मुनिर्भवत्विति। नृपः सिद्धार्थस्य कृते कनकस्य प्रासादमरचयत्, स तं प्रासादं रत्नैरभूषयत्। तस्य प्रासादस्य पुरतः पश्चाच्च वनेषु हृदा अभवन्, तेषु हृदेषु सर्वदा कमलान्यवर्धन्त, हंसाश्च तेषु हृदेषु सुखेनानृत्यन्। तस्मिन् प्रासादे प्रतिदिनं नार्यः कुसुमानां माला अरचयन् सिद्धार्थाय चायच्छन्। तत्र सिद्धार्थः सुखमेवालभत, स दुःखं न कदाप्यपश्यत्। सोचिन्तयत्, लोके सुखमेव भवति, दुःखं न कुत्रचिदपि वर्तते इति। एकदा सिद्धार्थः प्रासादाद् बहिरगच्छत्, स ग्रामे भ्राम्यत्। तत्र ग्रामे स कञ्चित् व्याधितं नरं, कञ्चित् वृद्धं नरं, कञ्चिच्च मृतं नरम् ऐक्षत। ततः स दुःखमबोधत्, स कञ्चन मुनिञ्चापश्यत्। तस्य मुनेर्मुखे सिद्धार्थः सुखमेवापश्यत्। सिद्धार्थो मन्यत, अहं दुःखं नेच्छामि, ततः सुखायाहं मुनिर्भवेयमिति। स पुनः स्वं प्रासादमगच्छत्। यद्यपि स भार्यया पुत्रेण च सह प्रासादे वसत्, तथापि स सर्वदा दुःखस्य कारणमचिन्तयत्। कुतो नरस्य जीवनं दुःखं भवति, कुतो मुनिर्गृहं त्यजति वनं च गच्छति, कथं स वने सुखं लभते। यशोधरा मम भार्या, राहुलो मम पुत्रः, कुत्र मम सुखम्? अहं ताभ्यां सह वसानि, अथवा तौ त्यजानि वनं च गच्छानि? एतत् स सर्वदा चिन्तयत्। एकदा रात्रौ सिद्धार्थो भार्यां पुत्रं प्रासादं चात्यजत्, सोऽश्वमारोहद्वनं चागच्छत्। वने सोऽश्वमप्यत्यजत्, स केशान कृंतन नद्यां चाक्षिपत् स सर्वाणि भूषणान्यप्यनले क्षिपत् सोवदत् अधुनाहं मुनिर्भवेयमिति। ततस्स सत्यस्य दर्शनाय ग्रामाद् ग्रामं वनाद् वनं देशाद् देशमभ्राम्यत्। स यं यं मुनिमपश्यत् तं तं सोऽपृच्छत्। स यद्यत् पुस्तकमलभत तत्तत् पुस्तकं सोऽपठत्, तथापि स सत्यन्नाबोधत्। एकदा सोऽचिन्तयत् यद्यः मन्नं न भक्षयेयम्, जलमपि न पिबेयम्, तर्ह्यहं सत्यं पश्येयमिति। ततः सोऽन्नं जलं चात्यजत्। स वृक्षस्याधोऽसीदत्, किन्तु स सत्यन्नाबोधत्। सोऽमन्यत यद्यहमन्नं जलं च त्यजेयमहं मरणमेव लभेय न सत्यम्, ततो ध्यानेनैवाहं मुनिर्भवेयमिति। ततोऽनन्तरं स यदा वृक्षस्याधो ध्यानायासीदत् तदा स सत्यमबोधत्, तदा स बुद्धोऽभवत्। स सर्वेषां जनानां गुरुरभवत्। जना बुद्धमपृच्छन् हे गुरो नमस्ते, अस्मभ्यं सत्यं कथय, कथं वयं दुःखं त्यजेमेति। बुद्धस्तानभाषत हे जनाः, इच्छा दुःखस्य कारणम्। यदि यूयम् इच्छां त्यजेत तर्हि युष्माकं जीवने दुःखं नैव जायेत। ये सुखमिच्छन्ति त एव दुःखं विन्दन्ति, ये सुखं नेच्छन्ति त एव सुखं लभन्ते इति। जना बुद्धमनमन् ते तं कुसुमैरपूजयन्, तस्य वचनानि च पुस्तकेष्वलिखन्, तानि च पुस्तकान्यपूजयन्, किन्तु जना इच्छां न कदाप्यत्यजन्। ततस्तेषां दुःखमद्यापि न शाम्यति।